इयम् आकाशवाणी। सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचकः कृष्णप्रसादोपाध्यायः। प्रधानमन्त्रिणा नरेन्द्रमोदिना प्रोक्तं यत् पूर्वोत्तरीयं भारतं समग्रस्य राष्ट्रस्य विकासाय पर्याप्तशक्तिं गतिञ्च आधत्। प्रधानमन्त्रिणा ह्यः नवदिल्ल्यां भारतमण्डपम् इत्यत्र अष्टलक्ष्मीमहोत्सवस्य उद्घाटनं कृतम्। त्रिदिवसीयः उत्सवः पूर्वोत्तरभारतस्य विशालसांस्कृतिकचित्रं प्रकाशयति। पारम्परिककलाः, शिल्पकलाः, सांस्कृतिकप्रथाः च संयोजयति। महोत्सवः एतेषां प्रदेशानां जीवन्तवस्त्र उद्यमस्य, शिल्पकलायाः, पर्यटन अवसराणां, पूर्वोत्तरस्य अष्टसु राज्यानाम् अद्वितीय उत्पादानां च प्रकाशनार्थम् असाधारणमञ्चरूपेण कार्यं करिष्यति। अस्य प्रदेशस्य 20+300 कृषकाणां, शिल्पीनाञ्च, उत्पादानां, कलानाञ्च प्रदर्शनं कुर्वत् ग्रामीण आपणम् एव बृहत्तमम् आकर्षणं भविष्यति। अस्मिन् कार्यक्रमे पूर्वोत्तरभारतस्य प्रसिद्धानां मूगा अथ एरी नामाख्ययोः, सिल्क इत्येतयोः कृते समर्पितानि मण्डपानि, शिल्पकलानां प्रत्यक्षप्रदर्शनानि, क्षेत्रस्य भौगोलिकसूचक उत्पादानां विषये च विशेषम् अवधानं भविष्यति। महोत्सवः अस्य जीवन्तप्रगतिं प्रदर्शयितुं महत्वपूर्णक्षणरूपेण कार्यं करिष्यति। पूर्वोत्तरभारतस्य सांस्कृतिकसमृद्धेः उत्सवम् आचरति तथा च तस्य निरन्तरवृद्धेः, विकासस्य च समर्थनाय नूतनान् निवेशान् आमन्त्रयिष्यति। स्वास्थ्य परिवार कल्याणञ्चेति मन्त्रालयेन समग्रे राष्ट्रे क्षयरोगं विरुध्य शतदिवसीयम् अभियानं प्रचाल्यते। स्वास्थ्यमन्त्रिणा जगत्प्रकाश नड्डा इत्यनेन हरियाणायाः पञ्चकुलानगरात् प्रदेशस्य मुख्यमन्त्रिणः नायब सिंहस्य उपस्थितौ अभियानस्यास्य शुभारम्भो विहितः। अवसरेऽस्मिन् प्रदेशस्वास्थ्यमन्त्री आरती सिंह राव इत्येषापि समुपस्थिता आसीत्। विदेशमन्त्रालयेन भारतीय नागरिकेभ्यः सीरियादेशस्य संकटापन्नां स्थितिमालक्ष्य तत्रत्या यात्रा मा कुर्युरिति सञ्चेतना प्रसारितास्ति। एकस्मिन् परामर्शे विदेशमन्त्रालयेन उक्तं यत् सीरियादेशे सम्प्रति भारतीयाः कथं सन्तीति ज्ञानाय दमिश्क इत्यत्र भारतीयदूतावासेन सह सम्पर्को विहितव्यः इति। ये तत्र स्थिताः जनाः सन्ति ते निर्दिष्टाः सन्ति यत् शीघ्रातिशीघ्रतया निर्गच्छन्त्विति। भारतदेशः संयुक्तराष्ट्रसङ्घस्य 68वें मादकपदार्थ आयोग इत्यस्य आध्यक्षं करोति। वियनादेशे संयुक्तराष्ट्रसङ्घस्य भारतपक्षीयः स्थायीसदस्यः शम्भुकुमारन् इत्यनेन ह्यः आधिकारिकरूपेण CND इत्यस्य अध्यक्षता कृता। हॉकी क्रीडायां कनिष्ठ महिला एशिया चषक स्पर्धा अद्यारभ्य ओमान देशस्य मस्कटेति नगरे समारभ्यते। अस्यां स्पर्धायां 10 दलानि प्रातिभाग्यं कुर्वन्ति। स्पर्धेयम् अग्रिमवर्षे चिलीदेशे सम्भावितस्य FIH कनिष्ठ विश्व चषक स्पर्धायै पात्रता विधायिकेति अस्ति। प्रथम ए वर्गे भारतीय दलस्य सामुख्यं कोरिया, जापान, चीन, ताइपे, हांगकांग, श्रीलंकेति देशैस्सह भविष्यति। पुरुष क्रिकेट 9-10 वयोवर्गीय एशिया चषक स्पर्धायां ह्यः भारतेन उपान्त्यचक्रे श्रीलंकादलं 7 स्तोभैः पराजितम्। भारतेन 74.1% धावनांकानां लक्ष्यं 21.4 क्षेपणचक्रेषु एव स्वायत्तीकृतम्। वैभव सूर्यवंशी इत्यमुना 37 कन्दुकेषु 67 धावनांकाः सम्प्राप्य सर्वाधिक धावनांकाः निर्मिताः। अपरत्र उपान्त्यचक्रे बांग्लादेशे देशदलेन दुबई अन्ताराष्ट्रियो क्रीडांगणे पाकिस्तानदलं 7 स्तोभैः पराजितम्। अनेन प्रकारेण अन्तिमस्पर्धायां भारत बांग्लादेशयोः साम्मुख्यं भविष्यति। ध्यातव्यमस्ति यत् बांग्लादेशः गतस्पर्धायाः विजेता देशो वर्तते। संघर्षोऽयम् अद्य दुबई नगरे समारप्स्यते इति वार्ताः।